एस रेडियो नेपालः सम्प्रति समाचारः श्रुयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना विद्यादेवी भण्डारिणा आगामिनो ज्येष्ठ मासस्य तृतीय दिवसाय संघीय संसदः द्वयोरेव सदनयोः अधिवेशनम् आहूतम् वर्तते। राष्ट्रपतिना भण्डारिणा नेपालस्य संविधानस्य अनुसारेण मन्त्रिपरिषदः परामर्शेन आगामिनो ज्येष्ठ मासस्य तृतीय दिवसे मंगलवासरे दिवाचतुर्वादने नयाँ बानेश्वर वर्तिनी अन्तर्राष्ट्रिय सम्मेलन केन्द्रे संघीय संसदः द्वयोरेव सदनयोः अधिवेशनम् आहूतमिति राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण ह्य प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। तत्पूर्वं ह्य उपविष्टेन मन्त्रिपरिषदः उपवेशेन संघीय संसदः अधिवेशनम् आगामिनो ज्येष्ठ मासस्य तृतीय दिवसाय आह्वातुं राष्ट्रपतेः विद्यादेवी भण्डारिणः समक्षं परामर्शनाय निर्णीतम् आसीत्। राष्ट्रपतिना विद्यादेवी भण्डारिणा द्वौ अध्यादेशौ क्रियान्वितौ स्तः। राष्ट्रपतिना भण्डारिणा एतद् विक्रम वर्षीयौ औषध तृतीय संशोधनाध्यादेशः स्वास्थ्यकर्मिणां स्वास्थ्य संस्थानां च सुरक्षा सम्बद्ध प्रथम संशोधनाध्यादेशश्च क्रियान्वितौ वर्तेते। राष्ट्रपति कार्यालयस्य प्रवक्त्रा सागर आचार्येण ह्य प्रकाशितायं विज्ञप्तौ नेपालस्य संविधानस्य अनुसारेण नेपाल सर्वकार मन्त्रिपरिषदः परामर्शेन राष्ट्रपतिना इमौ अध्यादेशौ क्रियान्वितौ इत्युल्लिखितम् अस्ति। नेपाली कांग्रेस दलस्य सभापति प्रधानमन्त्री च शेरबहादुर देउवा भासते गठबन्धनम् राष्ट्रिय आवश्यकता वर्तते। पञ्चदलीय गठबन्धनेन ह्य पोखरायाम् आयोजिताम् नैर्वाचनिक सभाम् सम्बोधयन् प्रधानमन्त्री देउवा अवोचत् गठबन्धनम् सबलीकृत्य अग्रे नेतव्यम्। गठबन्धनम् कांग्रेस दलाय सर्वाधिकम् आवश्यकम् अस्तीति चर्चयन् प्रधानमन्त्री देउवा अवदत् गठबन्धने संकोप संकयोः अवस्था नास्ति। नैर्वाचनिक सभायाम् नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः अकथयत् वर्तमानं सत्ता गठबन्धनं न केवलं स्थानीय स्तराणां निर्वाचनं यावदेव परं आगामी प्रादेशिक संघीय निर्वाचनं यावत् सततं स्थास्यति। अध्यक्ष प्रचण्डः अभासत गठबन्धनस्य जन्मदिनादेव त्रुटनस्य षड्यन्त्रं विधीयमानमस्तीति हेतोः वर्तमान गठबन्धनस्य न केवलं स्थानीय स्तराणां निर्वाचन पर्यन्तं परं भविष्यति प्रादेशिक संघीय निर्वाचनं यावत् नयनम् आवश्यकं वर्तते। अध्यक्ष प्रचण्डः अतर्कयत् गठबन्धनम् निर्माय प्रतिगमन प्रतिक्रान्तिकारिणां विरुद्धे यदि संघर्षो नाभविष्यत् देशो दुर्घटनायाम् अपतिष्यत। नेपाल कम्युनिष्ट पार्टी एकीकृत समाजवादिनः अध्यक्ष माधव कुमार नेपालः अवदत् पञ्चदलीय गठबन्धनेन जनविश्वास क्रमेण विजितो वर्तते। ह्य एव दाङ जनपदस्य तुलसीपुरे गठबन्धनस्य दलैः आयोजिताम् नैर्वाचनिक सभाम् सम्बोधयन् नेपाली कांग्रेस दलस्य सभापतिः प्रधानमन्त्री च शेरबहादुर देउवा अगदत् पञ्चदलीयम् गठबन्धनम् ऐतिहासिक्या राष्ट्रियया च आवश्यकतया निर्मितम् वर्तते। प्रधानमन्त्री देउवा कयत् देशस्य दुर्घटनातो रक्षणाय राष्ट्रस्य हिताय च आवश्यकताम् अनुभूय गठबन्धनम् निर्मितम् वर्तते। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली राष्ट्रस्य समृद्धेः विकासस्य राजनीतिक स्थायित्वस्य च पक्षे अभिमतम् प्रकटयितुम् सर्वान् अनुरुणाद्धि। ललितपुरस्य च्यासल वर्तिनी दल केन्द्रीय कार्यालये ह्य पत्रकार सम्मेलनम् आयोज्य अध्यक्ष ओली अवोचत् स्पष्ट योजनया नीति कार्यक्रमेण चैव राष्ट्रिय विकास सम्भवति। अध्यक्ष ओली निर्वाचनायोगस्य मतपत्राणां रंग परिवर्तन प्रवृत्तिन् निर्णयान् प्रति असन्तुष्टिम् प्रकटयन् अभासत आयोगेन कस्मिंश्चित् दलाय सहयोग प्रापणत्वेन निर्णयो न विधेय। नेपाली कांग्रेस दलस्य महामन्त्री गगन कुमार थापा भासते जनतया प्रदत्तस्य मतस्य सम्मानः कांग्रेस दलेन विक्रियते। नेपाली कांग्रेस दलस्य काष्ठमण्डप नगरपालिकायाः षड्विंश वडा क्षेत्रीय शाखया ह्य आयोजितायाम् नैर्वाचनिक सभायाम् प्रतिगृहम् प्राप्तेः कार्यक्रमे च महामन्त्री थापा नेकपा एमाले दलस्य सर्वकारेण जनतया प्रदत्तम् मतम् सम्मानयितुम् नसक्तमिति आरोपयत्। सर्वकारेण निर्वाचनस्य सुरक्षायां संलग्नतायाः समये सुरक्षाकर्मीषु मृत्ये सुसत्सु तेषाम् आश्रित परिवाराय विंशतिर् लक्षणम् रूप्यकाणाम् आर्थिक सहायताम् प्रदातुम् निर्णीतम् वर्तते। गतदिने उपविष्टेन मन्त्रिपरिषदः उपवेशेन निर्वाचनस्य सुरक्षायाम् सन्नद्धानाम् नेपाली सेना, नेपाल प्रहरी, सशस्त्र प्रहरी बल, राष्ट्रियानुसन्धान विभागावधिक प्रहरी प्रवृत्ति सुरक्षाकर्मिणाम् मृत्यौ भूते सति तेषाम् आश्रित परिवाराय इमाम् आर्थिक सहायताम् प्रदातुम् निर्णीतमस्ति। उपवेशेन निर्वाचनस्य क्रमे आहतानाम् सुरक्षाकर्मिणाम् आवधिक प्रहरिणाम् च उपचाराय व्ययीभूतम् वित्तमपि सर्वकारेण बोढुम् निर्णीतम् वर्तते। एवमेव उपवेशेन हिमालयीय जनपदेषु कार्यरतेभ्य आवधिक प्रहरीभ्य प्रहरी पदवत् जनपद गतानुपातस्य अनुसारेण भोज्यभरणम् प्रदातुमपि निर्णीतम् वर्तते। निर्वाचनायोगेन स्थानीय स्तराणाम् निर्वाचनस्य सन्दर्भे दृष्टिविहीनतायाः शारीरिकासक्ततायाः अन्येन केनापि कारणेन वा स्वयं मतसंकेत सामर्थ्याभाव सम्बद्धस्य प्रावधानस्य विषये अतिरिक्तं स्पष्टीकृतं वर्तते। दृष्टिविहीनस्य शारीरिका सक्ततायुतस्य वा मतदातुः परिवारस्य सदस्याय सहैव गन्तुम् अनुमति प्रदानक्रमे एकलं मतदानकक्षं गत्वा स्वयं मतदानं कर्तुम् असमर्था व्यक्ति वर्तते नवेति सुनिश्चित्य अनुमति प्रदानात्मिका दृष्टिविहीनेन मतपत्रे मतसंकेतनाय असमर्थेन वा मतदात्रया सह गतया व्यक्त्या मतदानाधिकृतस्य सत्यापनेन सम्बद्ध मतदातुः कथनस्यानुसारेण निर्वाचनचिह्ने मतसंकेतकारिणी च व्यवस्था स्थिति आयोगस्य प्रवक्त्रा शालिग्राम शर्मा पौडेलेन ह्य प्रकाशितायं विज्ञप्तौ स्पष्टीकृतं वर्तते। स्थानीय स्तर निर्वाचन निर्देशिकायां विहितायाः व्यवस्थायाः अनुसारेण कस्यापि मतदातुः संयुक्त गृह परिवारस्य सदस्य तस्य नहि प्रतिनिधि अपितु केवलं सहयोगी एव भवतीति विज्ञप्तौ स्पष्टीकृतं वर्तते। निर्वाचनायोगेन स्थानीय स्तराणाम् निर्वाचनस्य सन्दर्भे निर्वाचनाचार संहितायाः विपरीततया विभिन्नानाम् दलानाम् प्रत्याशिनाम् च पक्षे विपक्षे वा सामग्रीणाम् प्रकाशनम् प्रसारणम् च न कर्तुम् संचार माध्यमाः अनुरुद्धाः सन्ति। आयोगेन निर्वाचनम् स्वच्छम् स्वतन्त्रम् निष्पक्षम् भयरहितम् विश्वसनीयम् च विधातुम् समाजस्य सर्वेषाम् पक्षाणाम् योगदानम् आवश्यकम् भवतीति हेतोः पूर्वानुमान युक्तानाम् सामग्रीणाम् प्रकाशनम् प्रसारणम् च विधातुम् अनुरुद्धमिति आयोगस्य प्रवक्त्रा शालिग्राम शर्मा पौडेलेन ह्य प्रकाशितायं विज्ञप्तौ उल्लिखितं वर्तते। विज्ञप्तौ निर्वाचनस्य दृष्ट्या सर्वे प्रत्याशिनः जनतायाः समक्षे समान योग्यतायाः भवन्ति। कस्यापि मतदातुः मतप्रकटनस्य गोपनीयतायाः स्वतन्त्रतायाश्च मत अधिकारस्य विरुद्धे कार्यं कुत्रचित् केनचित् च न विधेयम् इत्यत्र आयोगस्य दृढधारणास्तीति च उल्लिखिते स्तः। इति समाचारः।